పతిగుం భవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణా బ్రహ్మణస్పత ఆన శృణ్వన్ దోతిభిః సేదసాదనం ప్రణోతి వే సరస్వతీ వాజేభిర్వాజినీవతే ధీనామ విత్రయవతో గణేశాయ నమః సరస్వత్యే నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమణ్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇషు శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాతవతయానోరుద్రమృడయా యాతే రుద్ర శివా తనూర ఘోరా పాపకాశిని తయానస్తను వాశంతమయా గిరిశంతాభిచాకశే యామిషుం గిరిశంతహస్తే బిభర్ష్యస్తవే శివాం గిరిత్రతాం కురు మాహిగుం శ్రీః పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్ఛావదామసి యథా నః సర్వమిచ్చగదయక్ష్మగుం సుమనా అసత్ అధ్యవోచదది వక్తా ప్రథమో దైవ్యోభిషక్ అహీగశ్చ సర్వాంజంభయన్ సర్వాశ్రయాతు ధాన్యః అసౌయస్తామ్రో అరుణ ఉత వప్రస్సు మంగళః యే చేమాగుం రుద్రా అభితో దిక్షుశ్రుతా సహస్రశో వైశాగుం హేడ ఈమహే అసభ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నదహార్యః ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే అథో ఏ అస్య సత్వానోహం తేభ్యో కరన్నమః ప్రముంచ ధన్వనస్త్వముభయోరార్నియోర్జాం యాశ్చ తే హస్త ఇషవః పరాతా భగవో వప అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు దే నిశీర్య శల్యాణా ముఖా శివో నః సుమనాభవ విజ్యం ధనుః కపర్దినో విశల్యో బాణవాగుం ఉత అనేశం నః శేషవ ఆభురస్య నిషంగతిః యాతే హేతిర్మీఢుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజా నమస్తే అస్త్వాయుధాయానాతతాయ ధృష్ణవే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అథోయ ఇషుధిస్తవారే అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్ర్యంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుం जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः। सस्मिञ्जराय क्विषीमते पतीनां पतये नमो नमो। बब्लुषाय विव्याधिनेतानां पतये नमो नमो। हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो। भवस्य हेत्यै जगतां पतये नमो नमो। रुद्राय तताविने क्षेत्राणां पतये नमो नमः। सूताय हन्त्याय वनानां पतये नमो नमो। रोहिताय स्थपतये वृक्षाणां पतये नमो नमो। मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो। भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम। उच्चैर्घोषाय हृदयते पत्तीनां पतये नमो नम। कृत्स्नवीताय धावते सत्त्वनां पतये नमः। नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः। ककुभाय निषङ्गिणेस्तेनानां पतये नमो नमो। निषङ्गिण इषु धिमते तस्कराणां पतये नमो नमो। वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो। निचेरवे परिचरायारण्यानां पतये नमो नमः। श्रिकाविभ्यो जिगागुंसद्भ्यो मुष्णतां पतये नमो नमो। सिमद्भ्यो नक्तं चरद्व्यप्रकृन्तानां पतये नमो नम। उष्मीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम। इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम। आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम। आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम। आसीनेभ्य शयानेभ्यश्च वो नमो नम। स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम। स्तिष्ठद्भ्यो धावभ्यश्च वो नमो नम। सभाभ्यः सभापतिभ्यश्च वो नमो नमो। अश्वेभ्यो अश्वपतिभ्यश्च वो नमः। नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम। उगणाभ्यस्त्रिगुं हतेभ्यश्च वो नमो नमो। गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो। व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो। गणेभ्यो गणपतिभ्यश्च वो नमो नमो। विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो। महद्भ्यः शुल्लकेभ्यश्च वो नमो नमो। रथिभ्यो रथेभ्यश्च वो नमो नमो। रथेभ्यो रथपतिभ्यश्च वो नमो नम। सेनाभ्यः सेनानिभ्यश्च वो नमो नमः। शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः। కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్ఠేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమ స్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిబివిష్టాయ చ నమో మీడుష్టమాయ చేశుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అక్రియాయ చ ప్రథమాయ చ నమః ఆశవే చ జిరాయ చ నమః శీక్రియాయ చ శీభ్యాయ చ నమః ఓట్యాయ చ వస్వంత్యాయ చ నమః శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగంత్యాయ చ బుద్ధ్యాయ చ నమః సోభ్యాయ చ ప్రతిసర్గ్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉత్పత్త్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వంత్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో వర్మిణే చ వరూతినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో వృష్ణవే చ ప్రముషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమః శీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కార్త్యాయ చ నీప్యాయ చ నమః సూర్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈత్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః సామ్రాయ చారుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్కారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః సీత్యాయ చ కూల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆత్తాత్యాయ చ లాత్యాయ చ నమః షష్ట్యాయ చ పేత్యాయ చ నమః सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नम कृगुंशिलाय च शयनाय च नम कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नम स्तल्प्याय च गेह्याय च नम काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेष्ट्याय च नम पागुंसव्याय च रजस्याय च नम शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्ण्याय च सूर्ण्याय च नम पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रावे अन्धसस्पते दरिद्र नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्च नाममत् या ते रुद्र शिवा तनो शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजी तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयत्वीराय प्रभरामहे मतिम् यथा नश्यमस द्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रोतनो मयस्कृति क्षयत्वीराय नमसा विधेमते यच्चम् तयोश्च मनुराय जे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधीर्पितरम् मोतमातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वधिर्हविष्मन्तो नमसा विधेमते आराते गोघ्न उत पोरुषग्ने क्षयत्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव प्लूयथा च नः शर्म यच्च द्विबर्हाः सुहिश्रुतम् गर्तसदम् युवानम् मृगन्न भीममुपहत्नमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्तिरा भगवद्यस्तनुष्वमीश्वस्तोकायतनयाय मृडया मीडुष्टमशिवतम शिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा न आचर पिनाकम् विव्रदागहि विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन्महत्यर्नवेन्तरिक्षे भवा अधि नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशिति कण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासक्कपर्दिनः ये अन्नेषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पताम् पतिरक्षय ऐलभृदाय व्युदः ये तीर्थानि प्रचरन्ति श्रुकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्तिरे तेषागुम् सहस्रयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्या येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचे दश दक्षिणा दश प्रदेचेद्दशो देचेद्दशोद्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् द्विष्मो यस्य नो द्वे स्थितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अक्षु य ओषधीषु यो रुद्रो विश्व भुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् वाशा मृत्योमर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरतिरुद्रो मा विशान्तकः तेनान्नेनाभ्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु हि यत्स्वशुसुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो ओभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेश्वजो यगुम् शिवाभिमर्शनः शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसेवा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाच्य मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनुश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्यश्च मे भावश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे
क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शयम् च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे हृदम् च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृशिश्च मे वृष्टिश्च मे जयेत्रम् च म औद्भिद्यम् च मे रयिश्च मे प्रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मेनम् च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मथुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे
ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంశుశ్చ మే రశ్మిశ్చ మేధాభ్యశ్చ మేధిపతిశ్చ మ ఉపాగుంశుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతి ప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రే చ మ ఆగ్రగణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతు గ్రహాశ్చ మేతి గ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వరీయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్రీవతశ్చ మే హార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే నిష్ణీయాశ్చ మే సృజశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే దిశవణే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతవృక్ష మ ఆధవనీయశ్చ మ ఆగ్నేయేంద్రం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే వభృతశ్చ మే స్వదాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే శ్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే తితిశ్చ మే ద్యౌశ్చ మే శక్వరీరంగులయోదిశశ్చ మే యజ్ఞేన కల్పంతామృక్ష మే సామ చ మే సోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్రధందరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవీ చ మే దిత్యవాచ్య మే దిత్యౌహే చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాచ్య మే తుర్యౌహే చ మే పష్ఠవాచ్య మే పష్ఠౌహే చ మ ఉక్షా చ మే వశా చ మ ఋషభశ్చ మే దేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మ ఆయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతా గుశ్రోత్రయజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాక్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకాచ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏకవిగుంశతిశ్చ మే త్రయోవిగుంశతిశ్చ మే పంచవిగుంశతిశ్చ మే సప్తవిగుంశతిశ్చ మే నవవిగుంశతిశ్చ మ ఏకత్రిగుంశచ్చ మే త్రయస్త్రిగుంశచ్చ మే చతస్రశ్చ మేష్టౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంశతిశ్చ మే చతుర్విగుంశతిశ్చ మేష్టావిగుంశతిశ్చ మే ద్వాత్రిగుంశచ్చ మే షట్త్రిగుంశచ్చ మే చ चत्वारिगुं षच्च मे चतुश्चत्वारिगुं षच्च मे सचत्वारिगुं षच्च मे वाजश्च प्रसवश्च पिजश्च क्रतुश्च सुवश्च वोर्धा च यज्ञियश्चान्त्यायनश्चान्द्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानिशगुंसि षद्विश्वे देवासूक्तवाच पृथिवीमातर्मा माहिगुंसीर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्या मनुष्ये व्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छञ्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स्वभूमिम् विश्वतो वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहते एतावानस्य महिमा अतोऽध्यायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्व उदैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदार्ज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्तसमिध कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तै यज्ञम् बर्हिः प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् वृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दापुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त
एके चो भयादतः गावो हजग्निरेतस्मात् तस्मात् जाता अजावयः यत्पुरुषं व्यददुः कथिता व्यकल्पयन् मुखं किमस्य कौ बाहु कावूरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीष्णोऽध्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्द्रदेवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्यादन्ति देवाः अद्यः सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेति त्वत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् त्वमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवाः शन्वशे भीष्य ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यान्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छञ्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् चिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्ति
शान्तिः। ॐ नासदासीन्नो सदासीत् तदानीम् नासीद्रजो नो व्योमा परो यत् किमावरिव कुहकस्य शर्मन् अम्भ किमासीत् गहनम् गभीरम् न मृत्युरमृतम् तर्हि न रात्रिया अह्न आसीत् प्रकेतः आनीतवातग्स्वधया तदेकम् तस्माद्धान्यन परः किञ्चनासा तम आसीत् तमसा गूढमग्रे प्रकेतम् सलिलघुम् सर्वमा इदम् तुच्छेनाभ्यपिहितम् यदासीत् तमसस्तन्महिना जायतैकम् कामस्तदग्रे समवर्तताधि मनसोरेतः प्रथमम् यदासीत् सतो बन्धुमसति निरविन्दन् हृदि प्रतीश्य कवयो मनीषा तिरश्चीनो विततो रश्मिरेषाम् अधस्विदासीत् दुपरिस्विदासीत् रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयति परस्तात् को अद्धा वेदकैः प्रवोचत् कुत आजाता कुतैयम् विसृष्टिः अर्वाक्तेवा अस्य विसर्जनाय अधा को वेदयत आबभूव इयम् विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न यो अस्याध्यक्ष परमे व्योमन् सो अङ्गवेद यदि वा न वेद ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः भृगुर्वै वारुणिः वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तस्मादेतत्प्रोवाच अन्नम् प्राणम् चक्षुश्रोत्रम् मनोवाचमिति तगुम्होवाच यतो वा इमानि भूतानि जायन्ते ये न जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति सतपोतप्यता सतपस्तप्त्वा अन्नम् ब्रह्मेति व्यजानात् अन्नाद्येव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ति अन्नम् प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम्भोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यता स्वतपस्तप्त्वा प्राणो ब्रह्मेति व्यजानात् प्राणाद्येव खल्विमानि भूतानि जायन्ते
प्राणेन जातानि जीवन्ति प्राणम् प्रयन्त्यभिसंविशन्ति ते तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति स्वतपोतप्यताम् स्वतपस्तप्त्वा मनो ब्रह्मेति व्यजानात् मनसोऽस्त्येव खल्विमानि भूतानि जायन्ते मनसा जातानि जीवन्ति मनःप्रयन्त्यभिसंविशन्ति ते तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति स्वतपोतप्यता स्वतपस्तप्त्वा विज्ञानम् ब्रह्मेति व्यजानात् विज्ञानाद्येव खल्विमानि भूतानि जायन्ते विज्ञानेन जातानि जीवन्ति विज्ञानम् प्रयन्त्यभिसंविशन्ति ते तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति स्वतपोतप्यताम् स्वतपस्तप्त्वा आनन्दो ब्रह्मेति व्यजानात् आनन्दाद्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दम् प्रयन्त्यभिसंविशन्ति ते सैषा भार्गवीवारुणी विद्या परमे व्योमन् प्रतिष्ठिता य एवम् वेद प्रतितिष्ठति अन्नवानन्दादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेना महान् कीर्त्या अन्नम् न निन्द्यात् तद्व्रतम् प्राणो वा अन्नम् शरीरमन्नादम् प्राणे शरीरम् प्रतिष्ठितम् शरीरे प्राणप्रतिष्ठितः तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेना महान् कीर्त्या अन्नम् न परिचक्षेत तद्व्रतम् आपो वा अन्नम् ज्योतिरन्नादम् अप्सज्योतिप्रतिष्ठितम् ज्योतिष्यापप्रतिष्ठिताः तदेतदन्नमन्ये प्रतिष्ठितम् स य एतदन्नमन्ये प्रतिष्ठितम् वेद प्रतिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेना महान् कीर्त्या अन्नम् बहुकुर्वेत तद्व्रतम् पृथिवी वा अन्नम् आकाशोऽन्नादः पृथिव्यामाकाशप्रतिष्ठितः आकाशे पृथिवी प्रतिष्ठिता तदेतदन्नमन्ये प्रतिष्ठितम् स य एतदन्नमन्ये प्रतिष्ठितम् वेद प्रतिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिः
ब्रह्मवच्चसेन महान् कीर्त्या न कञ्चन वसतौ प्रत्याचक्षीत तद्व्रतम् तस्माद्ययाकया च विधया बह्वन्नम् प्राप्नुयात् अराध्यस्मा अन्नमित्याचक्षते एतद्वै मुखतोऽन्नगुम् राद्धम् मुखतोऽस्मा अन्नगुम् राध्यते एतद्वै मध्यतोऽन्नगुम् राद्धम् मध्यतोऽस्मा अन्नगुम् राध्यते एतद्वा अन्ततोऽन्नगुम् राद्धम् अन्ततोऽस्मा अन्नगुम् राध्यते य एवम् वेद क्षेम इति वाचे योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषी समाज्ञाः अथ दैवीः तृप्तिरिति वृष्टौ बलमिति विद्युति यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्द इत्युपस्थे सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावान् भवति तन्मह इत्युपासीत महान् भवति तन्मन इत्युपासीत मानवान् भवति तन्नम इत्युपासीत नम्यन्ते स्मै कामाः तद्ब्रह्मेत्युपासीत ब्रह्मवान् भवति तद्ब्रह्मण परिमल इत्युपासीत पर्येणम् म्रियन्ते द्विषन्तः सपत्नाः पर्ये प्रिया भ्रातृव्याः स यश्चायम् पुरुषे यश्च सावादित्ये स एकः स य एवंवित् अस्मान् लोकात् प्रेत्या एतमन्नमयमात्मानमुपसङ्क्रम्य एतम् प्राणमयमात्मानमुपसङ्क्रम्य एतम् मनोमयमात्मानमुपसङ्क्रम्य एतम् विज्ञानमयमात्मानमुपसङ्क्रम्य एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामान्नि कामरूप्यनुसञ्चरन् एतत्सामगायन्नास्ते हा 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 अहमन्नमहमन्नमहमन्नम् अहमन्नादो अहमन्नादो अहमन्नादः अहग्श्लो कृतहग्श्लो कृतहग्श्लो कृत अहमस्मि प्रथमजारुतास्या पूर्वम् देवेभ्यो अमृतस्य न भाये यो मा ददाति स इदेव वाह अहमन्नमन्नमदन्तमाग्नि अहम् विश्वम् भुवनमभ्यभवाम् सुवर्णज्योतिः य एवम् वेद इत्युपनिषत् सहनाभवतु सहनो भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् ज्ञानेन मार्गेण महे महेशाः గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు ఓం శాంతి శాంతి శాంతి.